ಹರಿಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷ ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಳಯ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾಗೇಶಂತಾಭಿಚಾಕಷಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂ ತಹಸ್ತೇ ವಿವಶ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿಪ್ರದಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವರಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ವಗುಂಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಬಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ಸಾಮ್ರೋ ಅರುಣ ಉತ ವಪ್ರಸ್ವಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರತ ಸಹಸ್ರಶೋ ವೈಷ್ಣವಂ ಹೇರ ಈಮಹೇ ಅಸವ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಣಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಣ ನಮಃ ತರುಂಜ ಧನ್ವನಸ್ವಮುಪಯೋರಾರ್ದಿಯೋಜ್ಯಾಂ ಯಾಶ್ಚ ದೇಹ ಸ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸ್ವಮನಾಭವ ವೀರ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಹುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ತಿರ್ಮೀಡುಷ್ಟವಹಸ್ತೇ ಬಭೂವತೇ ಧನುಃ ತಯಾ ಸ್ವಾನ್ ವಿಶ್ವತಸ್ವಮಯಕ್ಷ್ಮಯ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತಕಾಯ ದೃಷ್ಟವೇ ಉಭಾವ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಋಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯೈಶ್ವರ್ಯಸ್ತವಾರಿ ಅಸ್ಮನ್ನಿರೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸಸ್ಮೇ ಜರಾಯ ತ್ವಶೀಮತೇ ಪತೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಭ್ಲುಷಾಯ ವಿವ್ಯಾಧಿನೇ ನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहितायस्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्मृताय औषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्नीनाम् पतये नमो नम कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निर्व्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभायणि शङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिवते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुम् सद्भ्यो मुश्रताम् पतये नमो नमो शिवद्भ्यो नक्तञ्चरद्य प्रकृतानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुवद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सवाभ्यः सवापदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपदेभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नम कुलालेभ्यः कर्मारेभ्यश्च वो नमो नम पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुग्रद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम स्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो वेणुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिराय च नमः शेग्रियाय च शेव्याय च नमः नोर्व्याय च वत्सन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च वग्नेयाय च नमः सोव्याय च प्रतिसर्याय च नमो याव्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च बविन्दते च नमो वर्मिणे च वरोतिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमुषाय च नमो द्योताय च प्रणिताय च नमो निषङ्गिणे चेष्वधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च मत्याय च नमः कात्याय च नेप्याय च नमः सोऽज्ञाय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐत्रियाय च तप्याय च नमो वात्याय च रेश्मियाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तेत्याय च कौल्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च नाद्याय च नमः षष्ट्याय च वेद्याय च नमः सिकत्याय च प्रवाह्याय च नमः इदिन्याय च प्रवर्त्याय च नमः हिगुंशिलाय च क्षयणाय च नमः गवर्धिने च पुलस्तवे च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्याय च सूर्याय च नमः पर्याय च पर्णशक्त्याय च नमो फगुरमानाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो वीक्षिणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रापे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मावेर्वारोमो येषाम् किञ्चनाममत् याते रुद्र शिवा तनो शिवा विश्वाः वेषजे शिवा रुद्रस्य वेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने शयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो वयस्कृदिक्षयद्वीराय नमसा विदेवते यच्चम् च योश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानमुक्षन्तमुतमानमुक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान् मानो रुद्रभावितो वदे हविष्मन्तो नमसा विदेवते आराते लोग्न उत पोरुषग्ने शयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधिशदेव प्रूयता च न शर्म यच्चद्विवर्हाः स्तुहि श्रुतम् गत्त स दैवानम् मृगन्न भीममुपहत्वमुग्रम् मृणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेयाः परिणो रुद्रस्य हेतिर्मृणत्वपरिपेशस्य दुर्मतिरगायोः अवस्थिरा भगवद्भ्यस्तनुष्वमीणस्तोकायतनयाय मृणय मेणुष्टमशिवतव शिवो न सुमना भव परमे वृक्ष आयुधन्यराय कृत्तिम् वसान आचर पिनाकम् विप्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यवस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभूम्या तेषागुम् सहस्रयो जने वधन्वानि तन्वसे अस्मिन्मात्यर्णवेन्तरिक्षे भवादि नीलग्रीवाशितिकण्ठा शर्वादः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवाभिलोहिताः ये भूतानामधिपतयो विशिकासक्यवर्धिनः ये अन्येषु विद्यन्ति पात्रेषु विवतो जनान् ये पथाम् पथिरक्षय ऐलवृदाय व्युदः ये तीर्थानि प्रचलन्ति स्वकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च निशो रुद्राभितस्तिरे तेषागुंसहस्रयो जने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्चरो वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो ಅಗ್ನವ್ಯೋ ಅಪ್ಸುಯ ಓಷಧೀಶು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು. ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋರ್ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾ ನವಯಜಾಮಹೇ. ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಯಸಿ ರುದ್ರೋಮಾ ವಿಶಾಂತಕಃ ನೇನಾನೇನಾಪ್ಯಾಯ ಸ್ವಾಹಾ. ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ವೇ ಪಾಹಿ ತಮಸ್ತು ಯಶ್ವಸ್ವದನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ವೇ ಸದಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ದೇವಮಸುರಂ ಧ್ರುವಸ್ಯ. ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಮೇಶ ಯೋಯಂ ಶಿವಾಭಿಮರ್ಶನಃ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಓಂ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ಮತ್ಸ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಡಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸೇರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮೃತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಓಂ ಅತ್ರಿಣಾತ್ವಾಕ್ರಿಮೇ ಹನ್ನೇ ಕಣ್ವೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೀನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗಸ್ತಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾ ಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರ ಅಥೋ ಕ್ಷತ್ರ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾ ಆಹರಾವದ್ಯಾ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮುಯ್ಯಮಸ್ಯ ಜಂಭಯೋ ಆದಧಾಮಿ ತಥಾ ಹಿ ತತ್ ಖನ್ಫನ್ಮಸಿ. ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಓಂ ಧಾತಾ ಪುರಸ್ತಾದ್ಯ ಮುದಾ ಜಹಾರ ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚ ತಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಸಹಸ್ರಶೀರುಷಂ ದೇವಂ ವಿಶ್ವಾಕ್ಷಂ ವಿಶ್ವಶಂಭುವಂ ವಿಶ್ವಂ ನಾರಾಯಣಂ ದೇವಮಕ್ಷರಂ ಪರಮಂ ಪದಂ ವಿಶ್ವತಃ ಪರಮಾ ನಿತ್ಯಂ ವಿಶ್ವಂ ನಾರಾಯಣ ಗುಂಭರಿಂ ವಿಶ್ವಮೇವೇದಂ ಪುರುಷಸ್ತದ್ವಿಶ್ವಮುಪಜೀವತೇ పతిం విశ్వస్యాత్మేశ్వరగుం శాశ్వతగుం శివమచ్యుతం నారాయణం మహాజ్ఞేయం విశ్వాత్మానం పరాయణం నారాయణ పరో జ్యోతిరాత్మా నారాయణ పరః నారాయణ పరం బ్రహ్మ తత్వం నారాయణ పరః నారాయణ పరో ధ్యాత ధ్యానం నారాయణ పరః యచ్చ కించిత్ జగత్ సర్వం దృశ్యతే శ్రూయతే పివా అంతర్బహిశ్చ తత్ సర్వం వ్యాప్య నారాయణ స్థితః అనంతమవ్యయం కవిగుం సముద్రేంతం విశ్వశంభువం పద్మకోశం ప్రతికాశగుం హృదయం చాప్యదో ముఖం అధో నిష్ట్యాపి తస్యాంతే నాభ్యాముపరితిష్ఠతి జ్వాలమాలాకులం భాతి విశ్వస్యాయతనం మహత సంతతగుం శిలాభిస్థులం వత్యాకోశసన్నిభం తస్యాంతే సుశిరగుం సూక్ష్మం తస్మిన్ సర్వం ప్రతిష్ఠితం తస్య మధ్యే మహానగ్నిర్విశ్వాచిర్విశ్వతో ముఖః చోగ్రముగ్భిభజన్ తిష్టన్నాహారమజర కవిః తేయోర్ధ్వమలశ్యాయి రశ్మయస్తస్య సంతతా సంతాపయతి స్వం దేహమాపాదతలమస్తకః తస్య మధ్యే మన్మిషికా అనేయోర్ధ్వా వ్యవస్థితః నీలతో యదమధ్యస్థాభిర్నిల్లేకే భవాస్వరా నేవారశోకవత్తన్వీ పీతాభా సత్యనోపమా తస్యా శిఖాయ మధ్యే పరమాత్మా వ్యవస్థితః స బ్రహ్మ సశివ స హరిశ్రేంద్ర స్వక్షర పరమస్వరాట్ రతగుం సత్యం వరం బ్రహ్మ పురుషం కృష్ణ పింగళం ఔర్ధ్వరేతం విరూపాక్షం విశ్వరూపాయ వై నమో నమః నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్. శాంతి శాంతి శాంతి. ఓం సహనావవతు సహనో భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై. ఓం శాంతి శాంతి శాంతి. అథవరుషోహ వై నారాయణో కామయత ప్రజాసృజేయేతి నారాయణాత్ ప్రాణో జాయతే మనః సర్వేంద్రియాణి చ ఖం వాయుర్జ్యోతిరాప పృథివీ విశ్వస్య ధారిణీ నారాయణాత్ బ్రహ్మా జాయతే నారాయణాద్ రుద్రో జాయతే నారాయణాదింద్రో జాయతే నారాయణాత్ ప్రజాపతయః ప్రజాయంతే నారాయణాద్వాదశాదిత్యా రుద్రావసవః సర్వాణి చ ఛందాగుంసి నారాయణాద్దేవ సముత్పద్యంతే नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अखनित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः निशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवम् वेद स विष्णुरेव भवति स विष्णुरेव भवति ॐमित्यग्रे व्याहरे नम इति पश्चात् नारायणायेत्युपरिष्ठात् ॐमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येते अनवब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पौषङ्गौ पत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति ताने कथा समभरत्तले ततोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पण्डरीकम् विज्ञानगरम् तस्मात्तदिरावन्मात्रम् ब्रह्मण्यो देवके पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकार परब्रह्म एतदथर्वशिरो यो धीते प्रातरदीयानो रात्रिकृतम् पापम् नाशयते सायमधीयानो दिवसकृतम् पापम् नाशयते माद्यम् दिनमादित्याभिमुखो दीयान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् द्रवते नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सह नावतु सह नौ भुनक्तु सह वीर्यम् करवावहे तेजस्विनावधीतमस्तु मा विद्विषावहे ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ भास्यमिदगुं सर्वं यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जेता माघृदकस्य सिद्धनम् कर्वन्नेवेह कर्माणि विशेषतगुं समा एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असूर्यानामते लोका अन्धेन तमसा भृताः तागस्ते प्रेत्या विगच्छन्ति ये वेचात्महनो जनाः अने यदेकं मनसो जवे यो नैन देवा आप्नुवन् पूर्वमर्षत् तद्धावतोऽन्यान्यत्ते तिष्ठत्तस्मिन् नवो मा तरिष्वा दधाति तदेजति तन्नेजति तद्दूरे तद्वन्दिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानं ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः कशोक एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमव्रणमस्नाभिरगुम् शुद्धमपापविद्धम् कविर्मणीषे परिभो स्वयम् भूर्यातोर्धान्व्यदधाश्वेभ्यः अन्नम् तमः प्रविशन्ति ये विद्याभुवासते ततो भूय इव ते तमोय उविद्यायागुम्भ्रताः अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया इति शुश्रुमधीराणाम् हस्तद्विच चक्षिरे विद्याञ्च विद्याञ्च यस्तद्वेदोभयगुंसः अविद्यया मृत्युम् नीत्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोय उसम्भूत्यागुम्रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम् भवात् इति शुश्रुमधीराणाम्ये हस्तद्विचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदोभयगुंसः विनाशेन मृत्युम् नीत्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् भूषन्न पावृणु सत्यधर्माय दृष्टये भूषन्नेकर्षेयमसूर्य राजा पत्यव्योहरश्मीन्समोहते जो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलमृतमथेदम् भस्मान्नगुम् शरीरम् ॐ क्रतो स्मर कृतग स्मर क्रतो स्मर कृतग स्मर अग्नेनय सुपथा ये अस्मान् विश्वानि देव वयुलानि विद्वान् युयोध्यस्मद्युहुराणमे नो भूयिष्ठान् ते नम उक्तिम् विदेव पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वेद्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियैजसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्रिनोर्बाहुभ्याम् पूष्णो हस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने स्वाम्राजेनाभिषिञ्चामि इन्द्रस्य त्वा साम्राजेनाभिषिञ्चामि बृहस्पते स्वा साम्राजेनाभिषिञ्चामि आयुराशास्ते सुप्रजास्वमाशास्ते सजातवनस्यामाशास्ते उत्तरान्देव यज्ञामाशास्ते भूयो हविष्करणमाशास्ते निर्गन्धामाशास्ते विश्वम् प्रियमाशास्ते यदरेण हविषाशास्ते तदस्यात् तदद्यात् तदस्मै देवारासन्ताम् ध्रुपदादेन मुमुचानः सिन्नस्नात्मलादिव होतम् पवित्रेणेवाज्यम् आपश्यन्दन्तु मैनसः भूर्भुवस्सु भोर्भूर्भुवस्सु भो भूर्भुवस्सुवः स्वस्ति प्रजाभ्यः परिपालयन्ता ज्ञानेन मार्गेण मये महेशाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति